पुष्करिणीं पुष्टिं पिंगलां पद्ममालिनीं चंद्रां हिरण्मयीं लक्ष्मीं जातवेदो महावः आर्द्रां यः करिणीं यष्टिं सुवर्णां हेममालिनीं शुचिः प्रयतो भूत्वा जुहुयादाजमन्वहम् सूक्तं पञ्चदशर्चं च श्रीकामः सततं जपेत् पद्मानने पद्म उरु पद्माक्षी पद्मासं भवे मां भजस्व पद्माक्षी येन सौख्यं लभाम्यहम् अश्वदायी गोदायी धनदायी महाधने धनं मे जुषतां देवी सर्वकामाश्च दे श्वादिगवेरथम् प्रजानां भवति माता आयुष्मन्तं करोतु माम् धन्मग्निर्धनं वायुर्धनं सूर्योधनं वसुः धनमिन्द्रो बृहत् वरुणं धनमश्नुते वैनते सोमं पिब सोमं पिबतु वृत्रः सोमं धनस्य सोमिनो मह्यं ददातु सोमिनः न क्रोधो न च मात्सर्या न लोभो नाशुभा मतिः भवन्ति कृतपुण्यानां भक्तानां श्रीसूक्तं जपेत् सदा वर्षन्तु ते विभावरे दिवो अभ्रस्य विद्युतः रोहन्तु सर्वविजान्यव ब्रह्म ग्रीषो जहि पद्मप्रिये पद्मिनी पद्महस्ते पद्मालये पद्मदलायताक्षी विश्वप्रिये विष्णु मनोनुकुले त्वत्पाद पद्मं मयि सन्निधस्व यासा पद्मासनस्था विपुलकटितटी पद्मपत्रा यताक्षी गंभीरावर्तनाभिः तनभर नमिता शुभ्र वस्त्रोत्तरीया
एवं वेद ओम महा
विष्णु पत्नी च धीमहि तन्नो लक्ष्मीः प्रचोदयात्।